अष्टम मंत्र का शांकर भाष्य। स यथोक्त आत्मा पर्यागत परिसमंताद गद गतवान आकाशद व्यापी इत्यर्थः। शुक्रम शुद्धम ज्योतिष्मदीप्तिमान इत्यर्थः। आकाशयम शरीरो लिंग शरीर वर्जित इत्यर्थः। अब्रणम अच्छतम अस्नाविरम स्नावाह सिरा यस्मिन्न विद्यन्त इस इत्यस्नाविरम अवरणस्नाविरम इत्याभ्याम स्थूल शरीर प्रतिषेधः। शुद्धम निर्मलम अविद्याम मलरहितमति कारण शरीर प्रतिषेधः। अपापविद्धं धर्म अधर्मादिपापवर्जितम् शुक्रमित्यादीनि वचांसि पुल्लिङ्गत्वेन परिणेयानि। स पर्यगातीत्युपक्रम्य कवि मनीषित्यादिना पुल्लिङ्गत्वेनोपसंहारात् कविः कान्तदर्शी सर्वदृक् नान्योऽस्ति द्रष्टा इत्यादिश्रुतेः मनीषी मनस ईशिता सर्वज्ञ ईश्वर इत्यर्थः। परिभूः सर्वेषां पर्युपरि भवतीति परिभूः स्वयंभूः स्वयमेव भवतीति येषाम् उपरि भवति यश्चोपरि भवति स सर्वः स्वमेव भवतीति स्वयंभूः। स नित्यं मुक्त ईश्वरो यथा तथ्यतः सर्वज्ञत्वाद्याथात् थाभावो यथा तथ्यं तस्माद्यथा भूतकर्मफलसाधन तोऽर्थान् कर्तव्यपदार्थान् व्यदवाद्विहितवान् यथानुरूपं व्यभजदित्यर्थः। शाश्वतिभ्यो नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यः इत्यर्थः। अत्राद्येन मन्त्रेण सवषडाशरित्यागेन ज्ञाननिष्ठोक्ता प्रथमो वेदार्थः। ईशावास्यमिदं सर्वं मा गृध कश्यस्विद्धनम् इति आज्ञानां जिजीविषूणां ज्ञानिष्ठा सम्भवे कुर्वन्नेवेह कर्माणि जिजीविषते इति कर्मनिष्ठोक्ता द्वितीयो वेदार्थः। अनयोश्च निष्ठयोर्विभागो मन्त्रप्रदर्शितयोर्बृहदारण्यके अपि प्रदर्शितः। सो अकामयत जाया मे स्यात् इत्यादिना अज्ञस्य कामिनः कर्माणीति मन एवास्यात्मा वाग्जाया इत्यादि वचनाद् अज्ञत्वं कामित्वं च कर्मनिष्ठस्य निश्चितं वगम्यते। तथा च तत्फलं सप्तान्नसर्गतेत्स्वात्मभावनात्मस्वरूपवस्थानम् जायाद्येषणात्रयसंन्यासेन च आत्मविदां कर्मनिष्ठा प्रतिकूल्येनात्मस्वरूपनिष्ठैव दर्शिता क्रिं प्रजया करिष्यामो येषां नेयमात्मयं लोकः इत्यादीना। ये तु ज्ञाननिष्ठाः सन्न्यासिनस्तेभ्यो असुर्या नाम त इत्यादिना अविद्वन्निन्दाध्वरेण आत्मनो यथात्म्य स पर्यगात इत्येतदन्तैमन्त्रैहरूपदृष्टं ते ह्यत्राधिकृता न कामिन इति। तथा च श्वेताश्वेतरणात् मन्त्रोपनिषद् अत्याश्रमिभ्यः परमं पवित्रं प्रवोच सम्यग्रिषिसङ्घिजुष्टम् इत्यादि विभज्योक्तम्।